इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। अन्ताराष्ट्रिय सीम्नि पाकिस्तान सम्बद्धायां नियन्त्रण रेखायां च बारामूलातः भुजपर्यन्तं 26 स्थानेषु ड्रोन इत्योपकरणानि दृष्टानि। एतेषु नागरिकेभ्यः सैन्यस्थानकेभ्यश्च सम्भाव्य संकटोत्पद्यमानानि शंकायुतानि ड्रोन इत्योपकरणानि सम्मिलितानि सन्तीति। रक्षासूत्रानुसारम् एतेषु स्थानेषु बारामुल्ला, श्रीनगर, अवन्तीपुरा, नगरकोटा, जम्मू, फिरोजपुर, पठानकोट, फाजिल्का, लालगढ़चट्टा, जैसलमेर, बाड़मेर, भुज, लखीनाला क्षेत्राणि सम्मिलितानि वर्तन्ते। अत्रावधौ भारतीय सशस्त्र बलैः उच्चतम स्तरीया सतर्कता निर्मीयते, तथा च वायवीय संकटः काउंटर ड्रोन सिस्टम इत्येतस्याः प्रणाल्याः उपयोगं कृत्वा निरन्तरं निरीक्षते। एतदतिरिच्य यत्र कुत्रापि आवश्यकता वर्तते तत्र त्वरित विधिना कार्याचरणमपि विधीयते। स्थानीयाधिकारिभिः सीमावर्तीषु क्षेत्रेषु निवसतां जनानां कृते कठोरः सुरक्षासम्बद्धः दिङ्निर्देशः प्रख्यापितः, यत् तैः अनावश्यकरूपेण आवागमनं सीमितं करणीयं तथा च गृहैव स्थातव्यः। अत्रोक्तं यत् व्याकुलतायाः आवश्यकता नैव वर्तते, अपितु सतर्कता पूर्वोपायाः च नागरिकैः करणीयाः। अस्माकं वार्ताहरः सूचितवान् यत् पंजाबराज्यस्य फिरोजपुर, अमृतसर, पठानकोट जनपदान् समेत्य समीपवर्तीषु जनपदेषु आक्रमणस्य प्रयासः विहितः पाकिस्तान देशेन ड्रोन इत्योपकरणैः, परञ्च भारतीय रक्षाबलैः सफलतापूर्वकम् एते प्रयासाः विफलीकृताः। अत्रावधौ फिरोजपुरे एकं गृहं क्षतिग्रस्तं जातम्, अथ च आक्रमणस्य कारणेन परिवारस्य एकस्य 3 सदस्याः व्रणिताः जाताः, ते च सर्वकारीय चिकित्सालये उपचाररताः वर्तन्ते इति सूच्यते। यत्ते सुरक्षिताः सन्तीति इति सूच्यते फिरोजपुरस्य आरक्षि प्रमुखस्य भूपिन्दर सिंह सिद्धु इत्येतस्य अनुसारम् एषा घटना भिन्ना आसीत्, यस्य सामुख्यं प्रभावि विधिना सेनाद्वारा कृतम्। पाकिस्तान देशः गुरुवासरे रात्रौ लेहतः सरक्रीक पर्यन्तं 36 स्थानेषु प्रायः 400 ड्रोन उपकरणानि उपयुज्य अन्तः प्रवेष्टुं प्रायतत। भारतीय सशस्त्र सैनिकाः गतिजागति विधिम् उपयुज्य तानि ड्रोन उपकरणानि नष्टीकृतवन्तः। नवदिल्ल्यां विशेष सूचनात्मक सत्रे भारतीय सेनायाः कर्नल पदारूढा सोफिया कुरैशी इत्येषा अकथयत् यत् पाकिस्तानीय सेना सम्पूर्ण पश्चिम सीमायाः सैन्य संरचनायाम् आक्रमणं कर्तुं भारतीय वायुक्षेत्रस्य अनेकवारं उल्लंघनं कृतवती। असौ अवदत् यत् ते नियन्त्रण रेखायां बृहत् क्षमतायुतानि शस्त्राणि अपि प्रक्षेपितवन्तः। अनया निगदितं यत् वायवीय आक्रमणानाम् उद्देश्यं वायुरक्षाप्रणाल्याः परीक्षणं, गुप्तसूचना संग्रहणं च आसीत्। एतदतिरिच्य प्राप्तानां ड्रोन अवशेषानां फोरेन्सिक इति अन्वेषणं प्रचलति, तथा च प्रारम्भिकानि प्रतिवेदनानि सूचयन्ति यत् तानि तुर्की ड्रोन्स एसेसगार्ड सोंग इति सम्बद्धानि आसीत्। भारतीय विमानपत्तन प्राधिकरणेन अस्य मासस्य 14 दिनांक पर्यन्तं भारतस्य उत्तर पश्चिमयोः 32 विमानस्थानकानि नागरिक विमान परिचालनार्थम् अस्थायीरूपेण निरुद्धानि इति घोषितम्। प्रभावितेषु विमानस्थानकेषु अमृतसर, चण्डीगढ़, जम्मू, श्रीनगर, भुज, जामनगर, जैसलमेर, पठानकोट इत्यादीनि महत्वपूर्णानि स्थानानि सन्तीति। एतदतिरिच्य दिल्ली मुंबई नगरयोः वायुसूचना क्षेत्रेषु विद्यमानाः वायुयातायात सेवाः मार्गाणां 25 ट्रामयानानि अपि अस्मिन् काले निरुद्धानि भविष्यन्ति। भारतः पाकिस्तानस्य विषये IMF इत्येतस्यां कार्यक्रमाणां प्रभावशीलतायाः विषये चिन्ता प्रकटितवान् इति वार्ताः।